ಲಿಂಗ ಪುರಾಣೋಕ್ತ ಶಿವ ಸಹಸ್ರನಾಮ ಸ್ತೋತ್ರಂ.
ಶ್ರೀ ಶಿವಸಹಸ್ರನಾಮ ಸ್ತೋತ್ರ ಮಹಾಮಂತ್ರಸ್ಯ ಶ್ರೀ ವಿಷ್ಣು ಋಷಿಃ ಅನುಷ್ಟುಪ್ ಛಂದಃ ಪರಮಾತ್ಮಾ ಶ್ರೀ ಶಂಕರೋ ದೇವತಾ. ಧ್ಯಾನ ಕಲ್ಪದ್ರುಮಸ್ಯ ದ್ರುತಕನಕನಿಭಂ ಚಾರು ಪದ್ಮಾಸನಸ್ಥಂ ವಾಮಾಂಕಾರೂಢ ಗೌರೀ ನಿಬಿಡಕುಚಭರಾ ಭೋಗ ಗಾಢೋಪಗೂಢಂ ನಾನಾಲಂಕಾರಕಾಂತಂ ಮೃಗಪರಶುವರಾಭೀತಿಹಸ್ತಂ ತ್ರಿನೇತ್ರಂ ವಂದೇ ಬಾಲೇಂದುಮೌಳಿಂ ಗಜವದನಗುಹಾಶ್ಲಿಷ್ಟಪಾರ್ಶ್ವಂ ಮಹೇಶಂ ಭವಶಿವಹರೋ ರುದ್ರಃ ಪುರುಷಃ ಪದ್ಮಲೋಚನಃ ಅರ್ಥಿತವ್ಯಃ ಸದಾಚಾರಃ ಸರ್ವಶಂಭುಮಹೇಶ್ವರಃ ಈಶ್ವರಃ ಸ್ಥಾಣುರೀಶಾನೋ ಸಹಸ್ರಾಕ್ಷಃ ಸಹಸ್ರಪಾತ್ ವರೀಯಾನ್ ವರದೋ ವಂದ್ಯಃ ಶಂಕರಃ ಪರಮೇಶ್ವರಃ ಗಂಗಾಧರ ಶೂಲಧರಃ ಪರಾರ್ಥೈಕ ಪ್ರಯೋಜನಃ ಸರ್ವಜ್ಞಃ ಸರ್ವದೇವಾದಿಗಿರಿಧನ್ವಾ ಜಟಾಧರಃ ಚಂದ್ರಾಪೀಡಃ ಚಂದ್ರಮೌಳಿಃ ವಿದ್ವಾನ್ ವಿಶ್ವಾಮರೇಶ್ವರಃ ವೇದಾಂತಸಾರಸಂದೋಹಃ ಕಪಾಲೀ ನೀಲಲೋಹಿತಃ ಧ್ಯಾನಾಧಾರಃ ಅಪರಿಚ್ಛೇದ್ಯಃ ಗೌರೀಭರ್ತಾ ಗಣೇಶ್ವರಃ ಅಷ್ಟಮೂರ್ತಿಃ ವಿಶ್ವಮೂರ್ತಿಃ ತ್ರಿವರ್ಗಃ ಸ್ವರ್ಗಸಾಧನಃ ಜ್ಞಾನಗಮ್ಯಃ ದೃಢಪ್ರಜ್ಞಃ ದೇವದೇವಃ ತ್ರಿಲೋಚನಃ ವಾಮದೇವೋ ಮಹಾದೇವೋ ಪಾಂಡುಃ ಪರಿದೃಢೋ ದೃಢಃ ವಿಶ್ವರೂಪೋ ವಿರೂಪಾಕ್ಷಃ ವಾಗೀಶಃ ಶುಚಿರಂತರಃ ಸರ್ವಪ್ರಣಯ ಸಂವಾದೀ ವೃಷಾಂಕೋ ವೃಷವಾಹನಃ ಈಶಃ ಪಿನಾಕೀ ಖಟ್ವಾಂಗೀ ಚಿತ್ರವೇಷಶ್ಚಿರಂತನಃ ತಮೋಹರೋ ಮಹಾಯೋಗೀ ಗೋಪ್ತಾ ಬ್ರಹ್ಮಾಂಗ ಹೃಜ್ಜಟೀ ಕಾಲಕಾಲಃ ಕೃತ್ತಿವಾಸಾಃ ಸುಭಗಃ ಪ್ರಣವಾತ್ಮಕಃ ಉನ್ಮತ್ತವೇಷಃ ಚಕ್ಷುಷ್ಯಃ ದುರ್ವಾಸಾಃ ಸ್ಮರಶಾಸನಃ ದೃಢಾಯುಧಃ ಸ್ಕಂದಗುರುಃ ಪರಮೇಷ್ಠೀ ಪರಾಯಣಃ ಅನಾದಿಮಧ್ಯನಿಧನಃ ಗಿರಿಶಃ ಗಿರಿಬಾಂಧವಃ कुबेरबन्धुः श्रीकण्ठः लोकवर्णोत्तमोत्तमः सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः धर्मकर्माक्षमः क्षेत्रं भगवान् भगनेत्रभित् उग्रः पशुपतिः तार्क्ष्यप्रियभक्तः प्रियं वदः दान्तोदयाकरो दक्षः कपर्दी कामशासनः श्मशाननिलयः सूक्ष्मः श्मशानस्थः महेश्वरः लोककर्ता भूतपतिः महाकर्ता महौषधी उत्तरः गोपतिः गोप्ता ज्ञानगम्यः पुरातनः नीतिः सुनीतिः शुद्धात्मा सोम सोमरतः सुखी सोमपः अमृतपः सोमः महानीतिर्महामतिः अजातशत्रुः आलोकः सम्भाव्यः हव्यवाहनः लोककारो वेदकारः सूत्रकारः सनातनः महर्षिः कपिलाचार्यः विश्वदीप्तिः त्रिलोचनः पिनाकपाणी भूदेवः स्वस्तिदः स्वस्तिकृत् सदा त्रिधामासौ भगः शर्वः सर्वज्ञः सर्वगोचरः ब्रह्मदृक् विश्वसृक् स्वर्गः कर्णिकारः प्रियः कविः शाकः विशाकः गोशाकः शिवानैकः क्रतुः समः गङ्गाप्लवोदकः भावः सकलः स्तपति स्थिरः विजितात्मा विधेयात्मा भूतवाहनसारथिः गणो गणकार्यश्च सुकीर्तिः छिन्न संशयः कामदेवः कामपालः भस्मोद्दूलितविग्रहः भस्मप्रियः भस्मशायी कामी कान्तः कृतागमः समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः चतुर्मुखः चतुर्बाहुः दुरावासो दुरासदः दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः अध्यात्मयोगनिलयः सुतन्तुः तन्तुवर्धनः शुभाङ्गः लोकसारङ्गः जगदीशः अमृताशनः भस्मशुद्धिकरो मेरुः ओजस्वी शुद्धविग्रहः हिरण्यरेताः तरणिः मरीचिर्महिमालयः महाह्रदः महागर्भः सिद्धवृन्दारवन्दितः व्याघ्रचर्मधरः व्याली महाभूतो महानिधिः अमृतांगः अमृतवपुः पञ्चयज्ञः प्रभञ्जनः पञ्चविंशतितत्त्वज्ञः पारिजातः परावरः सुलभः सुव्रतः शूरः वाङ्मयैकनिधिर्निधिः वर्णाश्रमगुरुर्वर्णी शत्रुचित्शत्रुतापनः आश्रमः क्षपणः क्षामः ज्ञानवानचलाचलः प्रमाणभूतः दुर्ज्ञेयः सुपर्णो वायुवाहनः धनुर्धरः धनुर्वेदः गुणराशिः गुणाकरः अनन्तदृष्टिः आनन्दः दण्डः दमयिता दमः अभिवाद्यो महाचार्यः विश्वकर्मा विशारदः वीतरागो विनीतात्मा तपस्वी भूतभावनः उन्मत्तवेषः प्रच्छन्नः जितकामोजितप्रियः कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः तपस्वी तारको धीमान् प्रधानप्रभुः अव्ययः लोकपालः अन्तर्हितात्मा कल्पादिः कमलेक्षणः वेदशास्त्रार्थतत्त्वज्ञः नियमो नियमाश्रयः चन्द्रसूर्यः शनिः केतुः विरामो विद्रुमच्छविः भक्तिगम्यः परं ब्रह्म मृगबाणार्पणो नघः अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः सर्वकर्माचलः त्वष्टा मङ्गल्यो मङ्गलावृतः महातपाः दीर्घतपाः स्थविष्टः स्थविरो ध्रुवः अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः अजः सर्वेश्वरः स्निग्धः महारेता महाबलः योगी योग्यो महारेताः सिद्धः सर्वादिः अग्नितः वसुर्वसुमनाः सत्यः सर्वपापहरो हरः अमृतः शाश्वतः शान्तः बाणहस्तः प्रतापवान् कमण्डलुधरी धन्वी वेदाङ्गो वेदविन्मुनिः भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः अतीन्द्रियो महामायः सर्वावासः चतुष्पतः कालयोगी महानादः महोत्साहो महाबलः महाबुद्धिः महावीर्यः भूतचारी पुरन्दरः निशाचरः प्रेतचारी महाशक्तिः महाद्युतिः అనిర్దేశ్య వపుః శ్రీమాన్ సర్వహార్యమితో గతిః బహుశ్రుతో బహుమయః నియతాత్మా భవోద్భవః ఓజస్తేజోద్యుతికరః నర్తకః సర్వకామకః నృత్యప్రియః నృత్యనృత్యః ప్రకాశాత్మా ప్రతాపనః బుద్ధస్పష్టాక్షరో మంత్రః సన్మానః సారసప్లవః యుగాదికృద్యుగావర్తః గంభీరో వృషవాహనః ఇష్టో విశిష్టః శిష్టేష్టః శరభశరభోధనుః అపామ్యదిః అధిష్టానం విజయో జయకాలవిత్ ప్రతిష్ఠితః ప్రమాణజ్ఞః హిరణ్యకవచో హరిః విరోచనః సురగణః విద్యేశో విబుధాశ్రయః బాలరూపో బలోన్మాథి వివర్తో గహనో గురుః కరణం కారణం కర్త సర్వబంధ విమోచనః విద్వత్తమో వీతభయః విశ్వభర్తా నిశాకరః వ్యవసాయో వ్యవస్థానః స్థానదో జగదాదిజః దుందుభో లలితో విశ్వః భవాత్మా ఆత్మని సంస్థితః వీరేశ్వరో వీరభద్రః వీరః వీరభృద్విరాట్ వీరచూడామణిర్వేత్త తీవ్రనాదో నదీధరః ఆజ్ఞాధారః త్రిశూలీ చ శిపిభిష్టః శివాలయః వాలకిల్యో మహాచాపః తిగ్మాంశుర్నిధిరవ్యయః అభిరామః సుశరణః సుబ్రహ్మణ్యః సుధాపతిః మఘవాన్ కౌశికో గోమాన్ విశ్రామః సర్వశాసనః లలాటాక్షో విశ్వదేహః సారః సంసారచక్రభృత్ అమోఘదండీ మధ్యస్థః హిరణ్యో బ్రహ్మవర్చసీ పరమార్థః పరమయః శంబరో వ్యాఘ్రకోనలః రుచిర్వర రుచిర్మంద్యో వాచస్పతిరహర్పతిః రవిర్విరోచనః స్కంధః శాస్తా వైవస్వతో జనః యుక్తిః ఉన్నతకీర్తిశ్చ శాంతరాగః పరాజయః కైలాసపతి కామారిః సవితారవిలోచనః విద్వత్తమో వీతభయః విశ్వహర్తా నివారితః నిత్యః నియతకల్యాణః పుణ్యశ్రవణకీర్తనః దూరశ్రవాః విశ్వసహః ధ్యేయో దుస్వప్ననాశనః ఉత్తారకో దుష్కృతిః దుర్ధర్షో దుస్సహో భయః అనాదిర్భూర్భువో లక్ష్మీః కిరీటిత్రిదశాధిపః విశ్వగోప్తా విశ్వభర్తా సుధీరో రుచిరాంగదః జననో జనజన్మాదిః ప్రీతిమాన్ నీతిమాన్నయః విశిష్టః కాశ్యపో భానుః భీమో భీమపరాక్రమః प्रणवः सप्तधाजारः महाकायो महाधनुः जन्माधिपो महादेवः सकलागमपारगः तत्त्वातत्त्वविवेकात्मा विभूष्णुः भूतिभूषणः ऋषिः ब्राह्मणविज्जिष्णुः जन्ममृत्युचरातिगः यज्ञो यज्ञपतिर्यज्वा यज्ञान्तो मोघविक्रमः महेन्द्रः दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः पञ्चब्रह्मसमुत्पत्तिः विश्वेशो विमलोदयः आत्मयोनिः अनाद्यन्तः षड्विंशत्सप्तलोकधृक् गायत्री वल्लभः प्रांशुः विश्वावासः प्रभाकरः शिशुः गिरिरथः सम्राट् सुषेणः सुरशत्रुः अमोघः अरिष्ठमतनः मुकुन्दो विगतज्वरः स्वयं ज्योतिः अनुज्योतिः आत्मज्योतिरचञ्चलः पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयी तनुः ज्ञानस्कन्धः महाज्ञानी निरुत्पत्तिरुपप्लवः भगो विवस्वानादित्यः योगाचार्यो बृहस्पतिः उदारकीर्तिः उद्योगी सद्योगी सदसन्मयः नक्षत्रमाली राकेशः साधिष्ठानः षडाश्रयः पवित्रपाणिः पापारिः मणिपूरो मनोगतिः हृत्पुण्डरीकमासीनः शुक्लशान्तः वृषाकपिः विष्णुः ग्रहपतिः कृष्णः समर्थः अनर्थनाशनः अधर्मशत्रुः अक्षय्यः पुरुहूतः पुरुष्टुतः ब्रह्मगर्भः बृहद्गर्भः धर्मधेनुः धनागमः जगत्हितैषि सुगतः कुमारः कुशलागमः हिरण्यवर्णो ज्योतिष्मान् नानाभूतधरो ध्वनिः अरोगो नियमाध्यक्षः विश्वामित्रो द्विजोत्तमः बृहज्योतिः सुधामा च महाज्योतिः अनुत्तमः मातामहो मातरिष्वा नभस्वान्नागहारधृक् पुलस्त्यः पुलहोगस्त्यः जातु कर्ण्यः पराशरः निरावरणधर्मज्ञः विरिञ्चो विष्टरश्रवाः आत्मभूः अनिरुद्धो अत्रिज्ञानमूर्तिः महायशाः लोकचूडामणिः वीरः चण्डसत्यपराक्रमः व्यालकल्पो महाकल्पः महावृक्षः कलाधरः अलङ्करिष्णुः त्वचलः रोचिष्णुः विक्रमोत्तमः आशुशब्दपतिः वेगी प्लवनः शिखिसारथिः असंसृष्टः अतिथिः शक्रः प्रमाथी पापनाशनः वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः जर्यो जराधिशमनः लोहितश्च तनूनपात् पृषदश्वः नभो योनिः सुप्रतीकः तमिस्रः निधाघस्तपनो मेघः पक्षः परपुरञ्जयः मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः वसन्तो माधवो ग्रीष्मः नभस्यः बीजवाहनः अङ्गिरा मुनिरात्रेयः विमलो विश्ववाहनः पावनः पुरुजित्शक्रः त्रिविद्यो नरवाहनः मनो बुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः तेजोनिधिः ज्ञाननिधिः विपाको विघ्नकारकः अधरः अनुत्तरः ज्ञेयः ज्येष्ठो निःश्रेयसालयः शैलो नगस्तनुः दोहः दानवारिः अरिन्दमः चारुधीर्जनकः चारु विशल्यो लोकशल्यकृत् चतुर्वेदः चतुर्भावः चतुरः चतुरप्रियः आम्नायोऽथ समाम्नायः तीर्थदेव शिवालयः बहुरूपः महारूपः सर्वरूपः चराचरः न्यायनिर्वाहको न्यायः न्यायगम्यः निरञ्जनः सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः मुण्डो विरूपो विकृतः दण्डी दान्तो गुणोत्तमः पिङ्गलाक्षोऽथ हर्यक्षः नीलग्रीवो निरामयः सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत् पद्मासनः परं ज्योतिः परावर परं फलः पद्मगर्भो महागर्भः विश्वगर्भो विचक्षणः परावरज्ञो बीजेशः सुमुखः सुमहास्वनः देवासुरगुरुः देवः देवासुरनमस्कृतः देवासुरमहामात्रः देवासुरमहाश्रयः देवादिदेवो देवर्षिः देवासुरवरप्रदः देवासुरेश्वरो दिव्यः देवासुरमहेश्वरः सर्वदेवमयो चिन्त्यः देवतात्मात्मसम्भवः ईड्योनीशः सुरव्याघ्रः देवसिंहः दिवाकरः विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः शिवज्ञानरथ श्रीमान् शिखिश्रीपर्वतप्रियः जयस्तम्भो विशिष्टम्भः नरसिंहनिपातनः ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः नन्दी नन्दीश्वरः नग्नः नग्नव्रतधरः शुचिः लिङ्गाध्यक्षः सुराध्यक्षः युगाध्यक्षः युगावहः स्ववशः सवशः स्वर्गस्वरः स्वरमयस्वनः बीजाध्यक्षो बीजकर्ता धनकृद्धर्मवर्धनः दम्भो दम्भो महादम्भः सर्वभूतमहेश्वरः श्मशाननिलयः तिष्यः सेतुः अप्रतिमाकृतिः लोकोत्तरस्फुटा लोकः त्रयम्बकः नागभूषणः अन्धकारिः मखद्वेषी विष्णुकन्धरपातनः वीतदोषः अक्षयगुणः दक्षारिः पूषदन्तहृत् धूर्जटिः खण्डपरशुः सकलो निष्कलो नघः आधारः सकलाधारः पाण्डुराभो मृडो नटः सुलोचनः सामगेयः प्रियकरः पुण्यकीर्तिरनामयः मनोजवस्तीर्थकरः जटिलो जीवितेश्वरः जीवितान्तकरो नित्यः वसुरेता वसुप्रियः सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः मानी मान्यो महाकालः सद्भूतिः सत्परायणः चन्द्रसञ्जीवनशास्ता लोकगूढः अमराधिपः लोकबन्धुः लोकनाथः कृतज्ञः कृतिभूषणः अनपायी अक्षरः कान्तः सर्वशास्त्रभृताम्बरः तेजोमयः द्युतिधरः लोकवायोऽग्रणीरणुः शुचिस्मितः प्रसन्नात्मा दुर्जयः दुरतिक्रमः ज्योतिर्मयः निराकारः जगन्नाथो जलेश्वरः तुम्भवीणी महाकायः विशोकशोकनाशनः त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धिरथाक्षजः अव्यक्तलक्षणो व्यक्तः व्यक्ताव्यक्तः विशाम्पतिः वरशीलो वरतुलः मानो मानधनोमयः ब्रह्मा विष्णुः प्रजापालः हंसो हंसगतिर्यमः वेधाधाता विधाता च अत्ता हर्ता चतुर्मुखः कैलासशिखरावासी सर्वावासी सतां गतिः हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता भूतालयो भूतपतिः भूतिदः भुवनेश्वरः संयोगी योगविद् ब्रह्मा ब्रह्मण्यः ब्राह्मणप्रियः देवप्रियः देवनाथः देवज्ञः देवचिन्तकः विषमाक्षः कलाध्यक्षः वृषाङ्को वृषवर्धनः निर्मदो निरहङ्कारः निर्मोहः निरुपद्रवः दर्पः दर्पितो दृप्तः सर्वऋतुपरिवर्तकः सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः भूतभव्यभवन्नाथः प्रभवः भ्रान्तिनाशनः अर्थः अनर्थः महाकोशः परकार्यैकपण्डितः निष्कण्टकः कृतानन्दः निर्व्याजः व्याजमर्दनः सत्त्ववान् सात्विकः सत्यकीर्तिस्तम्भकृतागमः अकम्पितः गुणग्राही नैकात्मा नैककर्मकृत् सुप्रीतः सुमुखः सूक्ष्मः सुकरः दक्षिणो नलः स्कन्दः स्कन्दधरो धुर्यः प्रकटः प्रीतिवर्धनः अपराजितः सर्वसहः विदग्धः सर्ववाहनः अधृतः स्वधृतः साध्यः पूर्तमूर्तिर्यशोधरः वराहशृङ्गधृक्वायुः बलवान्येकनायकः श्रुतिप्रकाशः श्रुतिमान् एकबन्धुः अनेकधृक् श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः भूषयो भूतिकृद्भूतिः भूषणः भूतवाहनः भक्तकायस्थः कालज्ञानी कलावपुः सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः परार्थवृत्तिः वरदः विविक्तः श्रुतिसागरः अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कः स्वभावरुद्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली मेखली कवची खड्गी मायी संसारसारथिः अमृत्युः सर्वदृक्सिंहः तेजो राशिः महामणिः असङ्ख्येयः अप्रमेयात्मा वीर्यवान् कार्यगोविदः वेद्यो वेदार्थवित् गोप्ता सर्वाचारो मुनीश्वरः अनुत्तमो दुराधर्शः मधुरः प्रियदर्शनः सुरेशः शरणं सर्वः शब्दब्रह्मसतां गतिः कालभक्षः कलङ्कारिः कङ्कणीकृतवासुकिः महेश्वासो मही भर्ता निष्कलङ्को विशृङ्खलः द्युमणिः तरणिः धन्यः ಸಿದ್ಧಿದಃ ಸಿದ್ಧಿ ಸಾಧನಃ ನಿವೃತ್ತಃ ಸಂವೃತಶಿಲ್ಪೋ ವ್ಯೂಢೋರಸ್ಕೋ ಮಹಾಭುಜಃ ಏಕಜ್ಯೋತಿಃ ನಿರಾತಂಕೋ ನರೋ ನಾರಾಯಣ ಪ್ರಿಯಃ ನಿರ್ಲೇಪೋ ನಿಷ್ಪ್ರಪಂಚಾತ್ಮಾ ನಿರ್ವ್ಯಗ್ರೋ ವ್ಯಗ್ರನಾಶನಃ ಸ್ತವ್ಯಸ್ತವ ಪ್ರಿಯಃ ಸ್ತೋತ ವ್ಯಾಸಮೂರ್ತಿರನಾಕುಲಃ ನಿರವಧ್ಯ ಪದೋಪಾಯೋ ವಿದ್ಯಾರಾಶಿರವಿಕ್ರಮಃ ಪ್ರಶಾಂತಬುದ್ಧಿಃ ಅಕ್ಷುದ್ರಃ ಕ್ಷುದ್ರಃ ನಿತ್ಯಸುಂದರಃ ಧೈರ್ಯಾಗ್ರ್ಯದುರ್ಯೋಧಾತ್ರೀಶಃ ಶಾಕಲ್ಯಃ ಶರ್ವರೀಪತಿಃ ಪರಮಾರ್ಥಗುರುದೃಷ್ಟಿಃ ಗುರುರಾಶ್ರಿತವತ್ಸಲಃ ರಸೋರಸಜ್ಞಃ ಸರ್ವಜ್ಞಃ ಸರ್ವಸತ್ವಾವಲಂಬನಃ ಇತಿ ಲಿಂಗಪುರಾಣೇ ಶ್ರೀಶಿವಸಹಸ್ರನಾಮ ಸ್ತೋತ್ರಂ ಸಂಪೂರ್ಣಂ.